ओम नमो भगवते वासुदेवाय अथैकविंशोऽध्यायः श्रीशुक उवाच एतावानेव भूवलयस्य सन्निवेशः प्रमाणलक्षणतो व्याख्यातः एतेन हि दिवो मण्डलमानं तद्विदौपदिशन्ति यथा द्विदलयोर्निष्पावादीनां ते अन्तरेणान्तरिक्षं तदुभयसन्धितं यन्मध्यगतो भगवान् स्तपतां पतिस्तपनातपेन त्रिलोकीन् प्रतपत्यवभासयत्यात्मभासा स एष उदगयन दक्षिणायन वैषुवतसंज्ञाभिर्मान्द्यसैघ्र्यसमानाभिर्गतिभिरारोहणावरोहण समानस्थानेषु यथा सवनमभिपद्यमानो मकरादिषु राशिष्वहोरात्राणि दीर्घरस्वसमानानि विधत्ते यदा मेषतुलयोर्वर्तते तदा होरात्राणि समानानि भवन्ति यदा वृषभादिषु पञ्चसु च राशिषु चरति तदा हान्येव वर्धन्ते हसति च मासि मास्ये कैका घटिका रात्रिषु यदा वृश्चिकादिषु पञ्चसु वर्तते तदा होरात्राणि विपर्ययाणि भवन्ति यावद्दक्षिणायनमहानि वर्धन्ते यावदुदगयनं रात्रयः एवं नवकोटय एकपञ्चाशल्लक्षाणि योजनानां मानसोत्तरगिरिपरिवर्तनस्योपदिशन्ति तस्मिन्नैन्द्रीं पुरीं पूर्वस्मान् मेरोर्देवधानीं नाम दक्षिणतो याम्यां संयमनीं नाम पश्चाद् वारुणीं निम्लोचनीं नाम उत्तरत सौम्यां विभावरीं नाम तासुदयमध्यान्नास्तमयनिशीथानीति भूतानां प्रवृत्तिनिवृत्तिनिमित्तानि समयविशेषेण मेरोश्चतुर्दिशं तत्रत्यानां दिवसमध्यङ्गत एव सदादित्यस्तपति सव्येनाचलं दक्षिणेन करोति यत्रोदेति तस्यः समानसूत्रनिपाते निम्लोचति यत्र क्वचन स्यन्देनाभितपति तस्य हैषसमानसूत्रनिपाते प्रस्वापयति तत्र गतं न पश्यन्ति ये तं समनुपश्येरन् यदा चैन्द्रियाः पुर्याः प्रचलते पञ्चदशघटिकाभिर्याम्यां सपादकोटिद्वयं योजनानां सार्धद्वादशलक्षाणि साधिकानि चोपयाति एवं ततो वारुणीं सौम्यामैन्द्रीं च पुनस्तथान्ये च ग्रहाः सोमादयो नक्षत्रैः सह ज्योतिश्चक्रे समभ्युद्यन्ति सह वा निम्लोचन्ति एवं मुहूर्तेन चतुस्त्रिंशल्लक्षयोजनान्यष्टशताधिकानि सौरोरथस्त्रयीमयोऽसौ चतस्रिषु परिवर्तते पुरीषु यस्यैकं चक्रं द्वादशारं षण्णेमि त्रिणाभिः संवत्सरात्मकं समामनन्ति तस्याक्षो मेरोर्मूर्धनिकृतो मानसोत्तरे कृतेतरभागो यत्र प्रोतं रविरसचक्रं तैलयन्त्रचक्रवत् भ्रमन्मानसोत्तरगिरौ परिभ्रमति तस्मिन्नक्षे कृतमूलो द्वितीयोऽक्षस्तुर्यमानेन सम्मितस्तैलयन्त्राक्षवत् ध्रुवे कृतो परिभागः रथनीडस्तु सत्रिंशल्लक्षयोजनायतस्तत्तुरीयभागविशालस्तावान् रविरसयुगो यत्र हयाश्छन्दो नामानः सप्तारुणयोजिता वहन्ति देवमादित्यम् पुरस्तात् सवितुररुणः पश्चाच्च नियुक्तः सौत्ये कर्मणि किलास्ते तथा बालखिल्या ऋषयोऽङ्गुष्ठपर्वमात्राः षष्टिसहस्राणि पुरतः सूर्यं सूक्तवाकाय नियुक्ताः संस्तुवन्ति तथान्ये च ऋषयो गन्धर्वाप्सरसो नागा ग्रामण्यो यासुधाना देवा इत्येकैकशो गणाः सप्तचतुर्दशमासि मासि भगवन्तं सूर्यमात्मानं नानानामानं पृथङ् नानानामानः पृथक् कर्मभिर्द्वन्द्वश उपासते लक्षोत्तरं सार्धनवकोटियोजनपरिमण्डलं भूवलयस्य क्षणेन सगव्यूत्युत्तरं द्विसहस्रयोजनानि सभुङ्क्ते ॐ स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायाम् पञ्चमस्कन्दे ज्योतिश्चक्रसूर्यरथमण्डलवर्णनं नामैकविंशोऽध्यायः श्रीकृष्णार्पणमस्तु नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमां यथा त्वच्चरणाम्भोजे रतिः स्यादनपायिनी।